कथा देवाना अंगदमस्य जामने सुमन्तो नाम शृण्वतामनामहे को वृळादि कथमो नोमजस्करत् कथम ऊती अभ्यावर्तते क्रतोजन्ति क्रतवो हृत्सुधेतजो वेनन्ति वेनाः पतयन्त्यादिशाः न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधिकामा अयम् सदा नरा पाशंसम् भूषणमगो ह्यमग्निम् देवेभ्यमभ्यर्चसे गिरा सूर्यावासा चन्द्रमसा जमन् दिवित्रितम् वातमुषसमक्त्वमश्विना कथा कविस्तु वीरवान्कजा गिरा बृहस्पतिर्वावृधते सुभृक्तिभिः अज एकवाच्सुहवेभिरक्मभिरहि शृणोत बुद्ध्या हवेमने दक्षस्य वादिते जन्मनि व्रते राजानाभित्रा वरुणापि वाससे अतोऽर्तबन्धाः पुररथो अर्यमा सप्तः ताविषरूपेषु जन्मस तेनो अरवन्तो हवनश्रुतो हवम् विश्वे शृण्वन्तो वाजिनो मितद्रवः सहस्रसा मेधसा ताभिवत्मना बहो जेधनम् समिथेषु जभ्रे प्रभो वाजम् रथयुजम् पुरन्धिम् स्तोमैः कृणध्वम् सख्याय पोषणम् ते हि देवस्य सवितुः सवेमनिक्रतुम् सजन्दे सचितः सचेतसः त्रिः सप्तसस्रा नद्यो महीरो वनस्पतेन्पर्वताम् अग्निबोधजे कृशानुवस्त्रान्दिश्यम् सधस्थ आरुद्रम् रुद्रेषु रुद्रियम् हवामहे सरस्वते सरजुः सिन्धुरर्म्यभिर्महो महीरवसाजन्तवक्षणीः देवेरापो मातरः सोदयित्वो घृतपद्मजो मधुमन्ना अर्चत उत माता बृहद्दिवा शृणोतु न स्पष्टा देवेभिर्जनिभिः पिता वचाः रुभुक्षा वाजो रथस्पदर्भगो रण्वश्यंसः शशमानस्य पातु नः रण्वः सन्द्रष्टौ पितुमाम् इवक्षजो भद्रा रुद्राणाम् मरुतामुपस्तुतिः गोभिः श्यामजशसो जनेष्वा सदा देवास इळजास चेमहि याम् मेधियम् मरुत इन्द्रदेवा अददात वरुणमित्रयोजम् ताम् पीपयदपयसेव धेनुम् कुविद्गिरो अधिरथे महाथ कुविदङ्गप्रतियथा चिदस्य नः स जात्यस्य मरुतोपबोधथ न भाजत्र प्रथमम् सन्नसा महे तत्र जामित्तमजदर्दधातु नः तेहित्या वा पृथिवी मातरा महे देवी देवाञ्जन्मना यज्ञजे इतः उभेर्विभृत उभयम् भरेमभिः पुरोरेतांसि पितृभिश्च सञ्जतः विशाहोत्रा विश्वमश्नादिवार्यम् बृहस्पतिररमदिः पनीजसे ग्रावाजत्र मदुषु दुच्यते बृहदवे वसन्तमतिभर्वनैषिणाः एवा कविस्तु वीरवा अङ्घ्रदज्ञा द्रविणस्यर्द्रविणसश्च कानः उक्थेभिरत्र मतिभिश्च विप्रापे पयत्यजो दिव्यानि जन्म एवा प्लते सोदुरवे व्रधद्वा विश्व आदित्या अदिते मनीषे ईशानासो नरो अमर्त्येनास्ता विजनो दिव्यागजेन